महां इंद्र नृपदा चर्ष निप्रा उतद्विपरः अभिनस्सह अभिः अस्मद्र्यग्मा वृधे वीर्या आजोरुः पृथुः सुकृतः कर्तृभिर्भूत इन्द्रमेव धिषणा आसातये धात् बृहन्त भृष्वभजरञ्जुवानम् अशाळ्ळे नशवसाशो शुभांसम् सद्यश्चिद्यो वा वृधे असामि रथो करस्ना बहुलागभस्ते अस्मद्रिया अक्षं विमेहि श्रवांसि ज्योतेव पश्वः पशुपादमो न अस्मां इन्द्राभ्यावव्रत्स्वाजौ तं व इन्द्रं चतिरमस्य शाकैरिह नूनं वा जयन्तो हुवेम यथा चित्पूर्वे जरितार आसुरनेद्या अनभद्या अरिष्टाः धृतव्रतो धनताः सोपवृद्धः स हि वामस्य वसनः पुरुक्षः सञ्जग्मिरे पथ्या आराजो अस्मिन् समुद्रेण सिन्धवो जातमानाः शविष्ठन्न आभरशो रशव ओजिष्ठमोजो अभिभूत उग्रम् विश्वाद्युम्ना वृष्ण्यामानुषाणा भस्मभ्यन्दा हरिवो मादयध्यै यस्ते मतः प्रदनाशालमृध्र इन्द्र तन्न आभरशो शुभांसम् येन तोकस्य तनयस्य सातौ मम् सेमहि जगेवांसस्तोताः आनो परवृषणम् शुष्ममिन्द्रधनस्पृतम् शोशुभांसम् सुदक्षम् येन वंसामपृतना सुशत्रोऽन्तभोतिभिरुतजामीङ्ग्रजामीन आते शुष्मा वृषभ एतु पश्चादोत्तरादधरादा पुरस्तात् आभिश्वतो अभिसमे त्वर्वाङिन्द्रद्युम्नम् स्वर्वद्धे ह्यस्मे नृवत्त इन्द्र नृतमाभिरोतेवम् सेमहि वामम् श्रोमतेभिः ईक्षे हि वस्व उभयस्य राजन्धारत्नम् महिस्थोरम् बृहन्तम् मरुत्वन्तम् वृषभम् वा वृधानमघवारिम् दिव्यम् शासमिन्द्रम् विश्वासाहमवसे नूतना जोऽग्रम् सहोदामिहतम् हुवेम जनम् वज्रन्महि चिन्मन्यमानमेभ्यो नृभ्यो रन्धजाजेष्वस्मि अधाहित्वा पृथिव्याम् शूरसातौ हवा महेतनये गोष्वप्सो वयन्त एभिः पुरुहोत सख्यैः शत्रो अशत्रोरुत्तर इत्स्याम नन्दो वृत्राण्युभया निशूरराजामदेव बृहता त्वोताः